ओम नमो भगवते वासुदेवाय। अथ विंशोऽध्यायः। मैत्रेय उवाच, भगवानपि वैकुण्ठः साकं मघवता विभुः, यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक्तमभाषत। श्रीभगवानुवाच, एष ते कारशीद्भङ्गं हयमेत शतस्यः, क्षमापयत आत्मानममुस्य क्षन्तुमर्हसि। सुतियः साधवो लोके नरदेव नरोत्तमाः, नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम्। पुरुषा यदि मुह्यन्ति त्वादृशा देवमायया, श्रम एव परं जातो दीर्घया वृद्धसेवया। अतः कायमिमं विद्वान् विद्या कामकर्मभिः, आरब्ध इति नैवास्मिन् प्रतिबुद्धोऽनुसज्जते। असंसक्त शरीरेऽस्मिन्न मुनोत्पादिते गृहे, अपत्ये द्रविणे वापि कः कुर्यान्ममताम्बुधः। एकशुद्ध स्वयं ज्योतिर्निर्गुणोऽसौ गुणाश्रयः, सर्वगोनावृतः साक्षी निरात्मात्मात्मनः परः। य एवं सन्तमात्मानमात्मस्थं वेदपूरुषः, नाज्यते प्रकृतिस्थोऽपि तद्गुणैः स मयि स्थितः। यः स्वधर्मेण मां नित्यं निराशी श्रद्धयान्वितः, भजते शनकैस्तस्य मनोराजन् प्रसीदति। परित्यक्तगुण सम्यग्दर्शनो विशदाशयः, शान्तिं मे समवस्थानं ब्रह्म कैवल्यमश्नुते। उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मना, कूटस्थमिममात्मानं यो वेदाप्नोति शोभनम्। भिन्नस्य लिङ्गस्य गुणप्रवाहो द्रव्यक्रियाकारकचेतनात्मनः, दृष्टासु सम्पत्सु विपत्सु सूरयो न विक्रियं ते मयि बद्धसौहृदाः। समसमानोत्तममध्यमाधमः, सुखे च दुःखे च जितेन्द्रियाशयः। मयोपक्लिप्ताखिलोकसंयुतो विधत्स्ववीराखिलोकरक्षणम्। श्रेयप्रजापालनमेव राज्ञो यत्साम्पराये सुकृतात् षष्ठमंशम्। हर्तान्यथारितपुण्यः प्रजानाम रक्षिताकरहारोघमत्ति। एवं द्विजाग्र्यानुमतानुवृत्त धर्मप्रधानोऽन्यतमो वितास्याः, ह्रस्वेन कालेन गृहोपयातान् द्रष्टासि सिद्धानुरक्तलोकः। वरं च मत्कञ्चन मानवेन्द्र वृणीष्व तेऽहं गुणशीलयन्त्रितः। नाहं मखैर्वै सुलभस्तपोभिर्योगेन वा यत्समचित्तवर्ति। मैत्रेय उवाच, स इत्थं लोकगुरुणा विश्वक्सेनेन विश्वजित्, अनुशासितादेशं शिरसा च गृहे हरेः। स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा, शतक्रतुं परिष्वज्य विद्वेषं विससर्जः। भगवानथ विश्वात्मा पृथुनोपहृतार्हणः, समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः। प्रस्थानाभिमुखोऽप्येनमनुग्रह विलम्बितः, पश्यन् पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम्। सादिराजो रचिताञ्जलिर्हरिं विलोकितुं न शकदश्रुलोचनः, न किञ्चनोवाच स बाष्पविक्लवो हृदोपगुह्या मुमुधादवस्थितः। अथावमृज्याश्रुकला विलोकयन्न तृप्तदृग्गोचरमाह पूरुषम्। पदास्पृशं तं क्षितिमंस उन्नते विन्यस्तहस्ताग्रमुरङ्गविद्विषः। पृथुरुवाच, वरान् विभो त्वद्वरदेश्वराद्बुधः, कथं वृणीते गुणविक्रियात्मनाम्। ये नारकाणामपि सन्ति देहिनां, तानीश कैवल्यपते वृणेन च। न कामयेनाथ तदप्यहं क्वचिन्न यत्र युष्मच्चरणाम्बुजासवः। महत्तमान्तर्हृदयान्मुखच्युतो विधत्स्वकर्णायुतमेष मे वरः। स उत्तमश्लोकमहन्मुखच्युतो भवत्पदाम्भोजसुधाकणानिलः। स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां, कुयोगिनां नो वितरत्यलं वरैः। यशः शिवं सुश्रवार्यसङ्गमे यदृच्छया चोपशृणोति ते सकृत्। कथं गुणज्ञो विरमेद्विना पशुं श्रीर्यत्प्रवव्रे गुणसङ्ग्रहेच्छया। अथा भजेत्वाखिल पुरुषोत्तमं गुणालयं पद्मकरेव लालसः। अप्यावयोरेकपतिस्पृथो कलिर्न स्यात् कृतस्त्वच्चरणैकतानयोः। जगज्जनन्यां जगदीश वैशसं स्यादेव यत्कर्मणि न समीहितम्। करोऽसि फल्गवप्युरुद्दीनवत्सलः, स्व एव धिष्ण्येऽभिरतस्य किं तया। भजन्त्यथत्वा मत एव साधवो युधस्तमाया गुणविभ्रमोदयम्। भवत्पदानुस्मरणादृते सतां निमित्तमन्यद्भगवन्न विद्महे। मन्ये गिरं ते जगतां विमोहिनीं, वरं वृणीष्वेति भजन्तमात्थयत्। वाचानुतन्त्या यदि ते जनोऽसित, कथं पुनः कर्म करोति मोहितः। त्वन्माययाद्धा जन ईश खण्डितो यदन्यदासास्तरितात्मनो बुधः। यथा चरेद्बालहितं पिता स्वयं, तथा त्वमेवार्हसि नः समीहितुम्। मैत्रेय उवाच, इत्यादिराजेन नुतः स विश्वदृक्तमाह राजन्मयि भक्तिरस्तु ते। दृष्टे तृषिधीर्मयिते कृताय या मायां मदीयां तरति स्म दुस्त्यजाम् तत्त्वं कुरु मया दिष्टमप्रमत्तः प्रजापते मदादेश करो लोकः सर्वत्राप्नोति शोभनम्। मैत्रेय उवाच इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद्वचः पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेच्युतो मतिम्। देवर्षिपितृगन्धर्व सिद्धचारणपन्नगाः किन्नराप्सरसो मर्त्याः खगा भूतान्यनेकशः यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः सभाजिता ययौ सर्वे वैकुण्ठानुगतास्ततः। भगवानपि राजर्षेः सोपाध्यायस्य चाच्युतः हरन्निव मनोमुष्य स्वधाम प्रत्यपद्यत। अदृष्टाय नमस्कृत्य नृप सन्दर्शितात्मने अव्यक्ताय च देवानां देवाय स्वपुरं ययौ। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे विंशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।